राम गीता जी का पाठ दसवां अध्याय श्लोक 32 से अध्याय समाप्ति तक। राम
वसुदेव सुतं देवं पंचजानोरमर्दनं देवकी करमानं कृष्णं वंदे जगद्गुरुं सर्गनामादिरन्तस्य मध्यन्तैवाहमर्जुन अध्यात्मविद्याविद्यानां वादप्रवदतामहम् अक्षराणामकरोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षय कालो जाताहं वेश्वतोमुख मृत्योः सर्वहरस्ताः मोद्धवश्च भविष्यताम् कीर्तिः श्रीवाक्यनारीणाम् स्मृतिर्मे धाधृते क्षमा बृहत्साम तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षो ऋतूनां कुसुमाकर द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् कृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय मुनीनामप्यहं व्यास कवीनामुसुना कवि दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् मौनं चैवास्मि गुह्यनां ज्ञानं ज्ञानवतामहं यच्चापि सर्वभूतानां बीजं तदहमर्तुं न तदस्ति विना यस्यात् मया भूतं चराचरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तव एष तु देशतः प्रोक्तो विभूतिर्विस्तरो मला यद्यद्विभूतिमासत्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम् अथवा बहुलेकेन किं ज्ञातेन च वार्जुन वेष्टव्याहमिदं कृष्ण मेकांशेन स्थितो जगत् स्थितो जगत्कृष्णवसुतं देवं पंचजानोरमर्दनं देवकी करमानं कृष्णं वन्दे
हरे शरणम् 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 Hari Sharanam, 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 Hari Sharanam.